अस्माभिः पठितम्। तत्र चत्वारि पदानि सन्ति। सम्बुद्धौ इत्युक्ते सम्बोधन प्रथमादप्तौ शाकल्याचार्याणां मते इति परे किं भवति, तत्र प्रगृह्यसंज्ञः भवति इति। तत्र विष्णो इति इत्यत्र विष्णो इति प्रगृह्यसंज्ञा प्रकृतिभावः, तदनन्तरं सन्धिनिषेधः। विष्णौ इति यचोयवायाव, तदनन्तरं लोपशाकल्यस्य इति वैकल्पिकं रूपम्। एवम् अस्माभिः रूपत्रयं दृष्टम्। इदानीं मय उय ओ वा इति एकं सूत्रं विद्यते, लघुकौमुद्यां विद्यते। तत्र चत्वारि पदानि सन्ति। मयः इति पञ्चमी एकवचनम्, तत्र उयः इति षष्ठी एकवचनम्, वः इति वकारः प्रथमा एक बहुवचनम्, तत्र वा इत्यत्र विकल्पः। इदानीं अत्र उयः इत्युक्ते किम्? ऊ इति एकः निपातः, तदेव स्वीक्रियते। तत्र अत्र मयः इति मयः परस्य नाम तत्र मयः उयः ओ वा, मयः इति पञ्चमी अस्ति किल, अतः परस्य इति स्वीकर्तव्यम्। उयः इति षष्ठीस्थाने योग इत्यनेन उयस्थाने इति स्वीकर्तव्यं भवति। अत्र मयः इत्यत्र मयि प्रत्याहारः इति स्वीकर्तव्यम्। मयि प्रत्याहारे के वर्णाः आगच्छन्ति? मयि प्रत्याहारः किम् अस्ति मयि प्रत्याहारे? तत्र अङ्गुणृक् एवं वयो कयवरत् मयि प्रत्याहारे के वर्णाः आगच्छन्ति कृपया वदन्ति वा? कपै पर्यन्तम् आगच्छति, कुतः आरभ्यते? न्यामागाणानम् इत्यत्र मकारः अस्ति, तत्र मातः यापर्यन्तं नकारं विहाय सर्वे वर्णाः। अस्तु, एवं पूष्पणाम् अन्तःस्थानां न्याविहाय। साधु साधु। एवं मयः परस्य, अत्र मयः इत्यत्र प्रत्याहारः स्वीकर्तव्यः इत्येव न ज्ञायते, व्याख्यानेन विना न ज्ञायते। मयः परस्य इत्युक्ते अहमपि किञ्चित् भ्रान्तः, कदाचित् निमेषद्वये भ्रान्तः समभवत्। मयः इति अन्यत् किमपि स्वीकर्तव्यं वा इति? अत्र मयः इति प्रत्याहारः मयः परस्य इत्युक्ते एते वर्णाः, ततः परम् उयः, उयः इति ऊ इति निपातः, अचिपरे वः स्यात्। इदानीमेकम् उदाहरणं पश्यामः वाक्यरूपेण। किमु ऊ उक्तम् इति, किम् ऊ उक्तम्, किम् ऊ उक्तम् इति आगच्छति। तत्र अर्थः किं भवति इत्युक्ते, वाट् डिड् यु टेल् इति पृच्छामः आङ्ग्लभाषायां, कन्नडभाषायां हेल्बिट्या एन्न सोलिट्या इति तमिळ् भाषायाम्। एवं किम् उक्तं वा, उक्तं वा इति स्थाने किं, किम् उक्तं, किम् उक्तम् इति। एवम् अत्र किम् अस्ति, अत्र किम् किम् इत्यत्र हलन्तमकारः अस्ति। किम् ऊ उक्तम्, ऊ उक्तम् इत्यत्र एकाच् निपातः अस्ति, इदानीं यदि मया उयो ओवा इति सूत्रं नास्ति तर्हि किं भवति तर्हि किं भवति इत्युक्ते उकारस्य निपात एकाचनां इति प्रगृह्य संज्ञा भवति एकाचस्ति उ उक्तम् इत्यत्र एकाचस्ति अनांगस्ति प्रगृह्य संज्ञा भवति तदनन्तरं कृतप्रगृह्य आचिनित्यम् इत्यनेन प्रकृतिभावः अतः सन्धिः न भवति तदेकं विषयम् इदानीं पक्षे मय ऊयो वो वा इति भवति चेत् अत्र मकारः अस्ति मयि वर्णः उकारः अस्ति ऊ उक्तम् इत्यत्र निपातः ऊ इति निपातः उक्तम् इत्यत्र अच् अस्ति एवं किम् अस्ति इदानीं वकारादेशः भवति कस्य स्थाने उयः स्थाने एवम् उक उयः स्थाने किं भवति वकारः किम् उक्तम् इति वकारादेशः वकारादेशात्मकं रूपम् इदानीं प्रश्नः एवं सम्भवति अत्र मोनुस्वारः इति किम् उक्तम् इति अस्ति किल वकारः वकारस्य आगमनानन्तरं कृपया सर्वे सम्यक् शृण्वन्तु वकारस्य आगमनानन्तरम् अत्र मोनुस्वारः इति किमर्थं न भवति इति प्रश्नः तदा उच्यते एतत् सूत्रम् अष्टमाध्यायस्य तृतीयपादे अस्ति इदानीं मोनुस्वारः इति सूत्रं कुत्र विद्यते केऽपि वदन्ति वा मोनुस्वारः इति सूत्रस्य संख्या किम् कथम् अन्वेष्टव्यम् अष्टाध्यायी मध्ये यदि सूत्रस्य संख्या आवश्यकं कुत्र अन्वेष्टव्यम् उषा भगिनी कथम् अन्विष्टवती भवती अत्र अष्टाध्यायी मध्ये अन्ते सूचिः सूची अस्ति सूत्राणां सूची विद्यते तत्र विद्यते एवं सूची सहायेन कुत्र अस्ति इति द्रष्टुं शक्यते अष्टमाध्यायस्य तृतीयपादे त्रयोविंशतितमं सूत्रं किम् अस्ति मोनुस्वारः इदानीं तस्मिन् दिने पूर्वत्रासिद्धम् इति अहम् उक्तवान् तद्विषयम् इदमत्र आगच्छति इदानीं किं भवति मोनुस्वारः 8323 मयः उयो वो वा 8333 इदानीं मोनुस्वारः चिन्तयति अहमेव अष्टाध्यायी मध्ये अन्तिमं सूत्रम् मम अग्रे इत्युक्ते 24 सूत्रं नास्त्येव इति मोनुस्वारः चिन्तयति अतः मोनुस्वारस्य सूत्रस्य दृष्ट्या मयः उयो वो वा इति सूत्रमेव नास्ति यदि सूत्रमेव नास्ति तर्हि वकारः अत्र नास्ति वकारः मोनुस्वारः चिन्तयति अत्र किमु उक्तम् इत्यत्र उकारः एव अस्ति अतः मम कार्यं किमपि नास्ति यदि मकारस्य पुरतः यदि हल् अस्ति एव मोनुस्वारः अतः मम कार्यं किमपि नास्ति अतः अहं कार्यं न करोमि इति मोनुस्वारः असिद्धत्वात् मह अनुस्वारं न भवति मकारस्य अत्र अनुस्वारं न भवति एवं किम् उक्तम् इति रूपमेव भवति एतत् असिद्धत्वं किमर्थम् अत्र मोनुस्वारः न भवति इति सर्वैः अवगतं वा अस्तु बहु समीचीनम् अति उत्तमम् तत्र असिद्धत्वात् इति एतद् अष्टाध्यायी मध्ये कान्सेप्ट् अस्ति तद् कदाचित् अष्टमाध्यायस्य सूत्रम् इत्युक्ते अस्माभिः तद्विषये अस्माकं मनः गन्तव्यं तत्र असिद्धं किम् अस्ति सिद्धं किम् अस्ति इत्यादि अवश्यं द्रष्टव्यम्
इदानीम् एतत् सुलभमस्ति एतत् सर्वम् इको सवर्णे शाकल्यस्य ह्रस्वश्च इति एकम् अपरं सूत्रं विद्यते. अत्र किम् इत्युक्ते विधिसूत्रमस्ति. पदान्ते पदान्ताः इकः ह्रस्वः वा स्युः असवर्णे अचिपरे शाकल्याचार्याणां मते. इदानीं शाकल्याचार्याणां मते इत्युक्ते पाणिनिमते न भवति इत्युक्ते विकल्पः. अत्र किम् इति अस्माभिः ज्ञातव्यम्. इकः इत्युक्ते षष्टि एकवचनम्. असवर्णे अचिपरे तत्र असवर्णे सारि इको असवर्णे शाकल्यस्य ह्रस्वश्च. अस्तु, अत्र किम् एकः पदान्तादति इत्यत्र पदान्तादिति अनुवर्तते. एवमेव पदान्ताः इकः इति पदान्ताः इकः इति पदान्ताः इति इकस्य विशेषणं भवति. इदानीं ये प्रतुप्रकृत्यातिनि अचिनित्यम् इत्यतः अचि इत्यनुवर्तते. प्रकृत्यान्तः इत्यत्र प्रकृत्या इति अनुवर्तते. एतद् षष्ठाध्यायस्य सूत्रम्. इको असवर्णे शाकल्यस्य ह्रस्वश्च. इदानीम् इक्वर्णसम्बन्धि किमपि सूत्रं विद्यते. कदा एतस्य प्रवृत्तिः? पदान्ताः इकः. इकः नाम इक्वर् इक् नाम प्रत्याहारः. असवर्णे अचिपरे असवर्णे अचिपरे प्रकृत्याः स्युः ह्रस्वश्च वा. इदानीम् असवर्णे अचिपरे चक्री अत्र इत्यत्र चक्री अत्र इत्यत्र ईकारः अकारः अस्ति. असवर्णे अचिपरे इको यणचि इति यण् भवति. तद् पाणिनिमतेन यण् एव भवति. शाकल्याचार्याणां मते यणपि भवति कदाचित् ह्रस्वोऽपि भवति. इदानीम् असवर्णे अचिपरे प्रकृत्याः स्युः. शाकल्याचार्यः किं वदति? अत्र चक्री अत्र ह्रस्वश्च वा. तत्र चक्री अत्र इत्यत्र ह्रस्वः ईकारस्य दीर्घ ईकारः यदि अस्ति चेत् ह्रस्वः भवति. अतः प्रकृतिभा प्रकृत्याः स्युः इत्यनेन प्रकृतिभावश्च भवति. एवं चक्री अत्र इत्यत्र चक्री अत्र चक्रियत्र इति रूपद्वयं विद्यते शाकल्याचार्याणां मते. एतदस्माभिः स्मर्तव्यम्. इदानीं मधु अस्ति इति अस्ति. एतद् अन्यत् उदाहरणं. मत् किं भवति? मधु अस्ति. मध्वस्ति इति एकं यण्सन्देहरूपम् अस्ति. तदनन्तरं मधु अत्र इदानीं पदान्ताः अत्र पदान्ताः अत्र विशेषतः अस्माभिः स्मर्तव्यं. पदान्ताः एव इकः असवर्णे अचिपरे प्रकृत्याः भवन्ति शाकल्याचार्याणां मते. पदान्ते न भवति चेत् इदानीं गौरी औ इति भवति. गौरी गौर्यौ गौर्यः इति शब्दः अस्ति. ईकारान्तस्त्रीलिङ्गः गौरीशब्दः. तत्र प्रथमाव्यक्ति द्विवचने रूपस्य सिद्धिः कथं भवति इत्युक्ते गौरी इति प्रातिपदिकं सु औ जस् इति औ इत्यत्र प्रत्ययः सुप्रत्ययः विद्यते. एवं गौरी औ इति एवं स्थिते गौर्यौ इति कदाचित् न भवति. यदि अत्र ह्रस्वः क्रियते चेत् गौरी औ इति क्रियते चेत् तदा क्लेशः जायते. अतः गौरी औ इति क्रियते चेत् प्रकृतिभावः क्रियते चेत् सन्धिः एव न भवति. गौर्यौ इति रूपः न सिद्ध्यति इति रूपं न सिद्ध्यति. अतः पदान्ते एव एतस्य कार्यं भवति. इको असवर्णे शाकल्यस्य ह्रस्वश्च इति पदान्ते एव भवति. शाकल्याचार्याणां मते एव भवति. एवं पाणिनिमते न भवति. पाणिनिमते न भवति शाकल्याचार्याणां मते भवति इति पाणिनिः यदि वदति चेत् अस्माभिः विकल्परूपेण स्वीकर्तव्यम् इति अर्थः. तत्र पाणिनिः पूर्वाचार्याणां कदाचित् आदरं प्रदर्शयति. कदाचित् सः पूर्वाचार्याणां स्मरणं करोति, पूर्वाचार्याणां स्मरणम् आदरार्थम्, अनन्तरं पूर्वाचार्याणां स्मरणं तत्र वैकल्पिकविधानार्थमपि भवति इति भवति। इदानीं राजा ऋषि इति वि एन् मीनाक्षी भगिनी किमपि वदति, अत्र राजा ऋषि इत्यत्र ईक् अस्ति वा? ईक् एव नास्ति किल, राजा ऋषि इत्यत्र ईक् नास्ति, राजा इति अक् अस्ति तत्र। अतः अनेन सूत्रेण किमपि न भवति। इदानीम् अग्रिमसूत्रं पश्यामः। गौर्यौ इति यदा गौरी औ पदान्ते न भवति, गौर्यौ इति उदाहरणप्रदर्शनसमये अत्र प्रसङ्गवशात् एकं सूत्रमागतं, न तु तत्र प्रकृतिभावात्मकं सूत्रं वा तत्र प्रगृह्यविधायकं सूत्रं वा निपातं वा गति वा किमपि संज्ञान विधीयते, किमपि प्रसङ्गस्य गौर्यौ इति प्रसङ्गं स्वीकृत्य अत्र एकं सूत्रं मध्ये आगतं लघुकौमुद्याम्। अचोरहाभ्यां द्वे इति सिद्धान्तकौमुद्यां तु अन्यत्र अस्ति। इदानीम् अचोरहाभ्यां द्वे इति सूत्रं किं वदति? अत्र अष्टमाध्यायस्य सूत्रमेतत्, अतः पुनः यरोनुनासिके अनुनासिको वा इत्यतः यरः इति वा इति च अनुवर्तते। अत्र अचः इति पञ्चमी, अचोरहाभ्यां द्वे अचः इति पञ्चमी, अचः परस्य अचः पराभ्यां, रहाभ्याम् अचोरहाभ्यां, रहाभ्याम् इत्युक्ते पञ्चमी अस्ति, रेफः हकाराभ्याम् इति स्वीकर्तव्यं भवति। रेफहकाराभ्यां परस्य यरः द्वे, द्वे वा स्तः द्वित्वं भवति, द्वे स्तः गेट्स् रिपीटेड् टु टैम्स्। अचः पराभ्यां रेफ हकाराभ्यां परतः परस्य, सारि परस्य यरः द्वे वा स्तः इति सूत्रार्थः। इदानीं गौर्यौ इत्यत्र किं भवति? अत्र अस्मिन् उदाहरणे अतः पश्यामः, गौर्यौ इत्यत्र गौरी औ इत्यत्र रेफात् परं किं विद्यते? यकारः विद्यते। यकारः कथमागतः? इको इनचि इति सूत्रेण आगतः। गौरी औ इत्यत्र किं भवति? गौर्यौ इति रूपं भवति, यणादेश कृते गौर् यु औ इति भवति। इदानीं रेफः अस्ति, यकारः यर्वर्णः अस्ति, यकारः यर्वर्णः औ अस्ति। इदानीं सूत्रं किं वदति? रेफहकाराभ्यां परस्य यर्वर्णस्य द्वे वा स्तः द्वित्वं भवति, द्वित्वं भवति इत्युक्ते इट् गेट्स् रिपीटेड् ट्वैस्। इदानीं गौ ऋ यु यु यकारस्य द्वित्वं, यकारस्य द्वित्वं, तदनन्तरम् औ गौर्यौ इति रूपसिद्धिः भवति। एवमत्र पश्यन्तु, उपरि पश्यन्तु स्लैड् मध्ये गौर्यौ इत्येव उदाहरणं दत्तम्। अत्र द्वियकारः सन्ति, यकारद्वयमस्ति, द्वियकारः स्तः, यकारद्वयं तत्र अस्ति। यकारद्वयं कथमागतम्? अचोरहाभ्यां द्वे, अत्र अचोरहाभ्यां द्वे इति सूत्रम्, अचः परस्य अचः पराभ्याम् इति लिखितं वा? अचः पराभ्यां रेफ हकाराभ्यां परस्य यरः द्वे वा स्तः, द्वे वा स्तः नाम द्वित्वं भवति इत्यर्थः गौर्यौ इति उदाहरणम्। इदानीम् एवमेव हरि अनुभवः, हरि अनुभवः इत्यत्र एवमेव अच् अस्ति, रेफवर्णः अस्ति, यर् अपि अस्ति। इदानीं यर् वर्णस्य रूपद्वयं विद्यते, हर्यनुभवः हर्यनुभवः। एवमेव गौर्यौ इत्यत्रापि रूपद्वयं विद्यते। एवम् इदानीम् एतस्यैव सूत्रस्य किञ्चित् अन्यस्मात् पुस्तकात् किञ्चित् उदाहरणानि सङ्गृहीतानि मया, तत्र आर्याः अर्कः इति भवति अर्कः अर्कः कार्यम कार्यम हर्यनुभवः पूर्वी विकल्पः अस्ति आ विकल्पः अस्ति वा इति पृच्छति अचोरः अभ्याम द्वे द्वे वास्तः वा तत्र यदोरुनासिके अनुनासिको वा इति सूत्रात् वा इति अनुवर्तते सूत्रे नास्ति वा वाक वा इति विकल्पः एव अस्माभिः द्वित्वरहितरूपमेव प्रायः उपयुज्यते परन्तु द्वित्वरूपमपि अस्ति एतद् विकल्पः एव निर्झरः निर्झरः कर्म कर्म प्राणम् प्राणम् विसर्गः 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 मूर्खः मूर्खः एतादृशानि उदाहरणानि सन्ति तद् किञ्चित् परिशील्य अहमपि प्रेषयामि कदाचित् किं भवति यदा द्वित्वं भवति तस्य द्वित्ववर्णस्य द्वित्वकृतवर्णस्यापि कदाचित् जस्त्वसन्धिः चत्वसन्धिः इत्यादिकं भवति तद् व्यञ्जनसन्धिकरणसमये वयं पश्यामः इदानीम् अन्यत् सूत्रमस्ति न समासे इदानीं मध्ये यद् प्रसङ्गान्तरेण आगतं सूत्रम् अचोरः अभ्यां द्वे अत्र प्रसङ्गः किं विद्यते शाकल्याचार्याणां मतेन इको असवर्णे शाकल्यस्य ह्रस्वस्य इति इकारस्य इकां विषये तत्र शाकल्याचार्याणां मते ह्रस्वः भवति इदानीं तदेव वार्तिकरूपेण उच्यते वार्तिककारः किं करोति अस्यैव सूत्रस्य वार्तिकम् अपेक्षितम् इति सः किं करोति वार्तिकं रचयति ब्रह्ममकारं द्वित्वं वा तत्रापि एषः एव इदानीं वार्तिकं रचयति वार्तिकस्य स्वरूपं किं न समासे इति भवति न समासे इत्युक्ते किं न भवति समासे इत्युक्ते समासे उक्तशाकल्यविधिः न भवति इति एवं वाप्यामश्वः इति अस्ति वाप्यामश्वः इत्यत्र वापी अश्वः वाप्यश्वः इत्यपि आगच्छति एवम् अत्र यद्यपि वापी इत्यत्र इक्वर्णः अस्ति तथापि समासे वापी अश्वः इति स्थिते तत्र वाप्यामश्वः इति समासः कर्तुं शक्यते अतः अस्माभिः किं क्रियते वाप्यश्वः इत्यत्र ह्रस्वः न स्वीक्रियते इको असवर्णे ह्रस्वः शाकल्याचार्याणां मते अपि न स ह्रस्वः न भवति समासे यदि अस्ति चेत् ह्रस्वः न भवति ऋत्यकः ऋत्यकः इति एकं सूत्रं विद्यते एतत् ऋतिपरे इत्युक्ते ह्रस्वऋकारे परे पदान्ताः अकः प्राग्वत् भवति प्राग्वत् नाम शाकल्याचार्याणां मते प्रकृत्याः भवन्ति ह्रस्वश्च भवति इत्यर्थः इदानीं ब्रह्मर्षिः राजर्षिः इति मीनाक्षी भगिनी पृष्टवती ब्रह्मर्षिः इत्यत्र अत्र अस्ति ब्रह्मर्षिः राजर्षिः इत्यत्र राजर्षिः इति गुणसन्धिरूपम् एकं ततः परं राजर्षि ब्रह्मर्षि इत्यपि भवति एतत् ऋत्यकः इति सूत्रेण भवति ऋकारस्य विषये विशेषसूत्रम् अत्र निर्दिष्टम् पदान्ताः किम् इत्युक्ते पदान्ते एव भवति आरुच्छत् इत्यत्र उपसर्गः अस्ति धातुः अस्ति तत्र न भवति तत्र आटश्च आण्नद्याः आटश्च इति वृद्धिः एव भवति इति अस्माभिः स्मर्तव्यम् एवं न समासे इत्युक्ते समासे इको ह्रस्वे इको असवर्णे शाकल्यस्य ह्रस्वश्च इति सूत्रस्य प्रवृत्तिः नास्ति तदनन्तरं ऋत्यकः ऋत्यकः इत्यत्र ऋकारे पदे यदि पदान्ताः अक् सन्ति प्राग्वद्भवन्ति शाकल्याचार्याणां मते तत्र प्रकृतिभावः भवति इति अत्र निर्दिष्टं विद्यते ब्रह्मर्षिः 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 पदान्ताः किम् आरच्छत् आरच्छत् किञ्चित् सुलभमस्ति. अन्यानि उदाहरणानि सन्ति, तद् अहम् अग्रिमकक्षायां वदामि. अनन्तरम् इदानीं किमपि सन्देहाः सन्ति चेत् कृपया पृच्छन्तु. अत्सन्धेः कक्षा इदानीं समाप्ता, इत्युक्ते अत्सन्धिप्रकरणम् इदानीं समाप्तम्. अस्माभिः हल्सन्धिप्रकरणे अग्रिमकक्षायां तत्र वेबिनार् टूल् किञ्चित् अन्यत् अस्माभिः स्वीक्रियते, तद्विषये अहं सूचनां सर्वं प्रेषयामि. तत्र अग्रिमबुधवासरे प्रायः तत् टूल् भिन्नः भवति. यदि भिन्नः न भवति तदपि अहं प्रेषयामि. देर् इस् नो चेञ्ज् इन् द टूल्, लेट् अस् लाग् इन् टु एनि मीटिङ्ग् ओन्ली इति अहं सूचयामि, मङ्गलवासरे सूचयामि. किमपि सन्देहः अस्ति चेत् कृपया पृच्छन्तु.